ओम नमो भगवते वासुदेवाय। अथ सप्तविंशोऽध्यायः। श्रीशुक उवाच। गोवर्धने धृते शैल आसाराद् रक्षिते व्रजे गोलोकादाव्रजत्तृष्णम् सुरभिः शक्र एव च। विविक्त उपसङ्गम्य व्रीडितः कृतहेलनः पस्पर्शपादयोरेनम् किरीटेनार्कवर्चसा। दृष्टश्रुतानुभावोऽस्य कृष्णस्यामिततेजसः। नष्टत्रिलोकेशमद इन्द्र आह कृताञ्जलिः। इन्द्र उवाच। विशुद्धसत्त्वम् तव धाम शान्तम् तपोमयम् ध्वस्तरजस्तमस्कम्। मायामयोऽयम् गुणसम्प्रवाहो न विद्यते ते ग्रहणानुबन्धः। कुतो नु तद्धे तव ईश तत्कृता लोभादयो ये बुधलिङ्गभावाः। तथापि दण्डम् भगवान् बिभर्ति धर्मस्य गुप्त्यै खल निग्रहाय। पिता गुरुस्त्वम् जगतामधीशो दुरत्ययः काल उपात्तदण्डः। हिताय स्वेच्छातनुभिः समीहसे मानम् विधुन्वन् जगदीशमानिनाम्। ये मद्विधाज्ञा जगदीशमानिनस्त्वाम् वीक्ष्य काले भयमाशु तन्मदम्। हित्वार्यमार्गम् प्रभजन्त्यपस्मया ईहाखलानामपि तेऽनुशासनम्। सत्त्वम् ममैश्वर्यमदप्लुतस्य कृतागसस्ते विदुषः प्रभावम्। क्षन्तुम् प्रबोधार्हसि मूढचेतसोमैवम् पुनर्भून्मतिरीशमे सति। तवावतारोऽयमधोक्सजेह स्वयम्भराणामुरुभारजन्मनाम्। चमूपतीनाम भवाय देव भवाय युष्मच्चरणानुवर्तिनाम्। नमस्तुभ्यम् भगवते पुरुषाय महात्मने वासुदेवाय कृष्णाय सात्वताम् पतये नमः। स्वच्छन्दोपात्तदेहाय विशुद्धज्ञानमूर्तये सर्वस्मै सर्वबीजाय सर्वभूतात्मने नमः। मयेदम् भगवन् गोष्ठनाशाया सारवायुभिः चेष्टितम् विहते यज्ञे मानिना तीव्रमन्युना। त्वयेषानुगृहीतोऽस्मि ध्वस्तस्तम्भो वृथोद्यमः। ईश्वरम् गुरुमात्मानम् त्वामहम् शरणम् गतः। श्रीशुक उवाच। एवम् सङ्कीर्तितः कृष्णो मघोना भगवानमुम् मेघगम्भीरया वाचा प्रहसन्निदमब्रवीत्। श्रीभगवानुवाच। मया ते कारि मघवन् मखभङ्गोऽनुगृह्णता मदनुस्मृतये नित्यम् मत्तस्येन्द्र श्रियाभृशम्। मामैश्वर्य श्रीमदान्धो दण्डपाणिम् न पश्यति। तम् भ्रंशयामि सम्पद्भ्यो यस्य चेच्छाम्यनुग्रहम्। गम्यताम् शक्रभद्रम् वः क्रियताम् मेऽनुशासनम्। स्थीयताम् स्वाधिकारेषु युक्तैर्वः स्तम्भवर्जितैः। अथाह सुरभिः कृष्णमभिवन्द्य मनस्विनी स्वसन्तानैरुपामन्त्र्य गोपरूपिणमीश्वरम्। सुरभिरुवाच। कृष्णकृष्णमहायोगिन् विश्वात्मन् विश्वसम्भव भवता लोकनाथेन सनाथा वयमच्युत। त्वम् नः परमकम् दैवम् त्वम् न इन्द्रो जगत्पते। भवाय भवगो विप्र देवानाम् ये च साधवः। इन्द्रम् नस्त्वाभिषेक्ष्यामो ब्रह्मणा नोदिता वयम्। अवतीर्णोऽसि विश्वात्मन् भूमेर्भारापनुत्तये। श्रीशुक उवाच। एवम् कृष्णमुपामन्त्र्य सुरभिः पयसात्मनः जलैराकाशगङ्गाया ऐरावतकरोद्धृतैः। इन्द्रसुरर्षिभिः साकम् नोदितो देवमातृभिः। अभ्यषिञ्चत दाशार्हम् गोविन्द इति चाभ्यधात्। तत्रागतास्तुम्बुरुनारदादयो गन्धर्वविद्याधरसिद्धचारणाः। जगुर्यशो लोकमलापहम् हरेः सुराङ्गना सन्नृतुर्मुदान्विताः। तम् तुष्टुवुर्देवनिकायकेतवो व्यवाकिरंश्चाद्भुतपुष्पवृष्टिभिः। लोकाः पराम् निर्वृतिमाप्नुवंस्त्रयो गावस्तदा गामनयन्पयोद्रुताम्। नानारसौघा सरितो वृक्षा आसन्मधुस्रवाः। अकृष्टपच्यौषधयो गिरयो बिभ्रदुन्मणीन्। कृष्णेऽभिषिक्त एतानि सत्त्वानि कुरुनन्दन निर्वैराण्यभवंस्तात क्रूराण्यपि निसर्गतः। इति गो गोकुलपतिम् गोविन्दमभिषिच्य सः अनुज्ञातो ययौ शक्रो वृतो देवादिभिर्दिवम्। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे पूर्वार्धे इन्द्रस्तुतिर्नाम सप्तविंशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।